इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना कथितं यत् वैश्विक समाह्वानान् निवारणाय विश्वसनीयस्य भविष्यस्य कृते सज्जतायाः च आपूर्ति श्रृंखलायाः निर्माणार्थं भारत नेदरलैंड्स देशौ सहभागित्वं कुर्वन्तौ स्तः। भारतमवसराणां भूमीति वर्णितम्। सेनाध्यक्षेण जनरल उपेन्द्र द्विवेदिना पाकिस्तानं भयोत्पादकेभ्यः आश्रयं प्रदातुं भारतस्य विरुद्धं कार्याचरणाय च सावधानं कृतम्। पश्चिमबङ्गसर्वकारेण 11,000+ प्रदीयमानानां जातिप्रमाणपत्राणां पुनः सत्यापनं कर्तुम् आज्ञापितम्। CBSE इत्यनेन 12 कक्षायाः छात्राणां कृते उत्तरपत्राणां द्विस्तरीय पुनर्मूल्याङ्कनप्रक्रिया घोषिता। अपि च थाईलैंड ओपन बैडमिंटन क्रीडायां अद्य बैंकॉक नगरे उपान्त्यचक्रीयक्रीडायां मलेशिया देशस्य युगलं पराजित्य सात्विक साईराज रंकीरेड्डी तथा चिराग सेट्टी इत्येतयोः भारतीय पुरुषयुगलं अन्तिमस्पर्धायां प्रविष्टम्। प्रधानमन्त्री नरेन्द्र मोदी अद्य अवदत् यत् भारत नेदरलैंड्स देशौ विश्वस्यापि समाह्वानानां निवारणाय विश्वसनीयं पारदर्शकं भविष्यस्य कृते आपूर्ति श्रृंखलायाः निर्माणार्थं मिलित्वा कार्यं कुर्वन्तौ स्तः, यत् सः बहुविध संकटैः ग्रस्तम् आपद्दशकम् इति वर्णितम्। नीदरलैंड्स देशस्य हेगनगरे स्वस्य 5 देशानां यात्रायाः क्रमे सामुदायिक कार्यक्रमं सम्बोधयन् प्रधानमन्त्री श्रीमोदी अवदत् यत् विश्वं COVID-19 महामार्या वर्तमान संघर्षेण उद्भूत ऊर्जा संकटं चेत्यादीनां अभूतपूर्व प्रतिसन्धिं सम्मुखीकरोति।
पहले कोरोना आया, फिर युद्ध होने शुरू हो गए और अब आज की एनर्जी क्राइसिस है। ये दशक दुनिया के लिए आपदाओं का दशक बन रहा है। हम सभी देख रहे हैं, अगर ये स्थितियां तेजी से नहीं बदली गई तो बीते अनेक दशकों की उपलब्धियों पर पानी फिर जाएगा। दुनिया की बहुत बड़ी आबादी फिर से गरीबी के दलदल में चली जाएगी।
सः सावधानम् अकरोत् यत् एतेषां समाह्वानानां द्रुतगत्या निराकरणे विफलतया वैश्विक विकासलाभः व्यतिक्रमितः भविष्यति, तथा च जनसंख्यायाः विशालः भागः निर्धनतायां निमग्नः भविष्यति। आर्थिकस्थिति व्यवस्थायाः सुदृढीकरणाय वैश्विक प्रयासान् प्रकाशयन् प्रधानमन्त्री श्रीमोदी अवदत् यत् भारत नीदरलैंड्स देशौ संयुक्तरूपेण सुदृढ आपूर्ति श्रृंखलायाः निर्माणे केन्द्रितौ स्तः। प्रधानमन्त्री श्रीमोदी नीदरलैंड्स देशस्य प्रधानमन्त्रिणा रॉब जेटन इत्यनेन सह द्विपक्षीय वार्तां करिष्यति। सः अद्य मध्याह्ने हेगनगरे राजा विलियम अलेक्जेंडर तथा महारानी मैक्सिमा इत्येताभ्यां सह मिलनं कृतवान्। एषा यात्रा द्विपक्षीय सम्बन्धेभ्यः अधिक महत्वपूर्णा अस्ति। सम्प्रति सम्पन्नस्य भारत यूरोपीय मुक्त व्यापार सन्धेः अनन्तरं भारत यूरोपीय सम्बन्धानां व्यापक विस्तारस्य अपेक्षा अस्ति। नीदरलैंड्स देशस्य यात्रायाः अनन्तरं प्रधानमन्त्री श्रीमोदी श्वः स्वस्य यात्रायाः तृतीये चरणे स्वीडन देशस्य यात्रां करिष्यति। सिक्किम राज्यस्य स्थापना दिवसे प्रधानमन्त्रिणा श्रीनरेन्द्र मोदिना सिक्किम राज्यस्य जनानां कृते शुभाशयाः प्रेषितम्। सामाजिकान्तर्जालीय पटले श्रीमोदी अवदत् यत् भारतस्य विकासे सिक्किम राज्यस्य योगदानम् अत्यन्तं महत्वपूर्णमस्ति। अस्मिन् वर्षे उत्सवाः विशेषतया महत्वपूर्णाः सन्ति, यत् राज्ये 50तमः राज्यत्वदिवसः आचर्यते इति सः अवोचत्। प्रधानमन्त्री नरेन्द्र मोदी इराक देशस्य प्रधानमन्त्री पदस्य कार्यभारग्रहणाय अली फलीह कदीम अल जैदी इत्यस्मै अभिनन्दितवान्। सामाजिकान्तर्जालीये पटले श्रीमोदी अवदत् यत् इराक देशेन सह दीर्घकालिक मैत्रीपूर्ण सम्बन्धान् भारतम् अत्यन्तं महत्वं ददति, तथा च सर्वेषु क्षेत्रेषु द्वैपाक्षिक सम्बन्धान् इतोप्यधिकं सुदृढीकर्तुं दृढतया प्रतिबद्धः अस्ति। उभयोः राष्ट्रयोः संयुक्त प्रगत्यै समृद्ध्यै च संयुक्तरूपेण कार्यं कर्तुम् उत्सुकः अस्मीति प्रधानमन्त्री अवदत्। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। सैन्याध्यक्षेण जनरल उपेन्द्र द्विवेदिना पाकिस्तानं भयोत्पादकेभ्यः आश्रयं प्रदातुं भारतस्य विरुद्धं कार्याचरणाय च सावधानं कृतम्। नवदिल्ल्याम् आयोजिते सेनासंवाद कार्यक्रमे भाषमाणः श्रीद्विवेदी अवदत् यत् यदि पाकिस्तानः भारतस्य विरुद्धम् एतादृशाः गतिविधयः निरन्तरं करोति तर्हि तेन एतत् निश्चयं कर्तव्यं यत् सः भूगोलस्य भागः भवितुमिच्छति उत वा इतिहासस्य। पश्चिम बंगाल प्रशासनेन सर्वेषां जाति प्रमाणपत्राणां पुनः सत्यापनस्य आदेशः प्रदत्तः। एकादशाधिकद्विसहस्रतमवर्षात् निर्गतानां प्रमाणपत्राणां विषये अधिकारिणः उक्तवन्तः यत् गतचतुर्दशवर्षेषु एतेषां प्रमाणपत्राणां प्रमाणिकतायाः वैधतायाः च विषये प्रश्नाः उत्थापिताः सन्ति। शासकीय अभिलेखानुसारम् उक्तकालावधौ अनुसूचितजनजातीनाम्, अनुसूचितजातीनां तथा अन्यपश्चवर्तिवर्गाणां कृते प्रायः 170,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000, स्तरीय अधिकारिणश्च प्रत्येकं प्रमाणपत्रं सूक्ष्मतया परीक्षणं करिष्यन्ति। यदि किमपि प्रमाणपत्रं मिथ्या सूचनायाः उथवा अनियमिततायाः आधारेण निर्गतम् इति ज्ञायते तर्हि तद्विधेः अन्तर्गतं निरस्तं करिष्यन्ते। एषः निर्देशः तेषामपि नाम्नानां विषये प्रवर्तते येषां नामानि अद्यावधि मतदातृसूच्यां विशेषगहनसंशोधनस्य समये निष्कासितानि आसन्। तेषाम् आश्रितानां जातिप्रमाणपत्राणां समीक्षा भविष्यति तथा आवश्यकता चेत् तानि अपि निरस्तानि करिष्यन्ते। केन्द्रीय माध्यमिक शिक्षा परिषद CBSE इत्यमम् अवदत् यत् ये छात्राः स्वस्य परिणामैः असन्तुष्टाः सन्ति ते संरचित समीक्षा व्यवस्थां प्राप्तुं शक्नुवन्ति। या हि द्विचरणीय समीक्षा प्रक्रिया अस्ति। प्रथमे चरणे छात्राः स्वमूल्याङ्कितानाम् उत्तरपुस्तिकानां स्कैन इति प्रतिबिम्बितप्रतयः याचयितुं शक्नुवन्ति। एताः अन्तर्जालीयमाध्यमेन उपलभ्यन्ते। द्वितीयचरणे छात्राः विसङ्गतानां प्रश्नोत्तराणां सत्यापनाय आवेदनं कर्तुं शक्नुवन्ति उत वा अङ्कनयोजनायाः आधारेण विशिष्टानाम् उत्तराणां पुनर्मूल्याङ्कनार्थं याचनां कर्तुं शक्नुवन्ति। CBSE इत्यनेन सूचितं यत् छात्राः अस्य मासस्य 19 दिनाङ्कात् 20 दिनाङ्कपर्यन्तं प्रतिविषयाय 700 रूप्यकाणां शुल्केन मूल्याङ्कितानाम् उत्तरपुस्तिकानां प्रतिबिम्बितप्रतिलिपिं प्राप्तुम् अन्तर्जालीयमाध्यमेन आवेदनं कर्तुं शक्नुवन्ति। भारत ऋतुविज्ञानविभागेन आगामिदिनद्वयोः अण्डमान निकोबार द्वीपसमूहेषु उपहिमालये पश्चिमबङ्गे सिक्किमराज्ये असमे मेघालये तथा दक्षिणकर्णाटके अतिवृष्टेः पूर्वानुमानं कृतम्। अनेन विभागानुसारेण श्वः अरुणाचलप्रदेश केरल माहे तमिलनाडु पुदुचेरी तथा करैक्कल चेत्येत्येषु क्षेत्रेषु अपि एतादृशी एव स्थितिः भविष्यति। विभागेन उक्तं यत् बिहारे राज्ये आन्ध्रप्रदेशे छत्तीसगढ़राज्ये पूर्वी राजस्थाने झारखण्डे लक्षद्वीपे मध्यमहाराष्ट्रे मराठवाड़ायां जम्मूकश्मीरप्रदेशे लद्दाखे तथा देशस्य उत्तरपूर्वीय भागेषु च अद्य गर्जनेन तीव्रवातैश्च सह झंझावातस्य संभावना विद्यते। विभागेन झारखण्डे मध्यप्रदेशे तथा राजस्थानस्य केषुचित् स्थानेषु उष्णतरंगस्य स्थितेः अपि घोषणा कृता। थाईलैंड ओपन बैडमिंटन क्रीडायां अद्य बैंकॉक नगरे उपांत्य चक्रीय क्रीडायां मलेशिया देशस्य गोह सेफेई तथा नूर इज्जुद्दीन इत्यमुं च पराजित्य सात्विक साईराज रंकीरेड्डी तथा चिराग सेट्टी इत्येतयोः भारतीय पुरुष युगलं अंतिम स्पर्धायां प्रविष्टवन्तौ। आईपीएल क्रिकेट क्रीडायां अद्य आतिथेय कोलकाता नाइट राइडर्स इतीदं दलं ईडन गार्डन्स इत्यत्र गुजरात टाइटन्स इत्यनेन सह क्रीडिष्यति। क्रीडायाः आरम्भः सायं 7:30 भविष्यति। गतरात्रौ लखनऊ नगरस्य एकाना क्रीडांगणे लखनऊ सुपर जायंट्स इत्यनेन दलेन चेन्नई सुपर किंग्स दलं 7-0 पराजितम् इति वार्ताः।